अस्य वामस्य फलितस्य होतस्तस्य भ्राता मध्यमो अस्य स्नाः तृतीयो भ्राता घृतपृष्टो अस्यात्रा पश्यम् विस्पतिम् सप्तपुत्रम् सप्तयुञ्जन्तिरथमेकचक्रमेको अश्वो वहति सप्तनाम ऋणाभिचक्रमचरमनर्वम् यत्रेमा विश्वाभुवनाधीतस्तु इमाम् रथमधिजे सप्तदस्तः सप्तचक्रम् सप्तवहन्त्यस्माः सप्तस्वसारो अभिसन्नवन्ते यत्र गवाम्निहिता सप्त नाम कोदविषप्रथमम् जायमानमस्सन्वन्तम् यत नस्था बिभर्ति भूम्यासुरसृगात्मा क्वस्मित्वो विद्वांसमुपगात्पृष्टो मेतत् पाकपृच्छामि मनसा वीजानम् देवानाः मेनानिहिता पदानि वत्से भक्षयेधि सप्ततन्तोन्वितत्मिरे कवयभूतबाहु अधीवित्वाञ्चिकिदृशस्थितत्र कवीन् पृच्छामि विद्वनेन विद्वान् विजस्तस्थम् भरणिपालजाम् सुजस्य रूपे किमपि स्विदेकम् युगब्रवीद्विजयी मङ्गवे दास्य वामस्य निहितम् पदम् वेः शीर्षः क्षीरम् दुःकृते गावो अस्य बव्रिम्बसानामुदकम् पदाभूः माता पितरामृताभ्रभाजीर्जग्रेमनसासम् विजग्मे साभीभत्सर्गर्भरसानि विद्धानवस्वन्तजिदूपवाकमीयुः युक्ता मातासीद्धुरिदक्षिणाया अतिष्ठद्गर्भो वृजनेष्वन्तः अमीमे त्वत्सो अनुगाम पश्यद्विश्वरूप्यम् त्रिषुयोजनेषु तिस्रो मातृस्त्रेन् पितृन् बिभ्रते कभूर्ध्वस्तस्थौ मेमवग्लापयन्ति मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविधम् वाचमविश्वमिन्वा वादसारम् न हि तज्जनायवर्वर्तिचक्रम् परिद्यामृतस्य आपुत्रा अग्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च दशतुः पञ्चपादम् वितरम् द्वादशाकृतिम् दिवाहुःपरे अर्धे पुरीषिणम् अदेवे अन्योपारे विचक्षणम् सप्तचक्रेषलराहुरप्रीतम् पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वाः तश्चनाक्षस्तप्यते भूरिभारस्वना देवनशीर्यते सनाभिः सनेऽपि चक्रमजरम् विवावृतमुत्तानायाम् दृशयुक्ता वहन्ति सूर्यस्य चक्षूरजशैत्यावृतम् तस्मिन्नार्पिता भुवनानि विश्वाः साकम् जानाम् सप्तश माहुरे गजम् षणिज्यमार्षयो देवचादिति एषामिष्टानि विहितानि धामसस्थात्रे नेदन्ते विकृतानि रूपसः स्त्रियः सतीस्ताम् भूमे पुंसाहुः पश्य दक्षन्नान्न विचेदधन्तः रवैर्यः पुत्रः स यीमाचिकेतयस्तावि जानात् स पितुष्पिता सत् अवःपरेण परजेनावरेण पदा वत्सम् बिभ्रति गौरुदस्तात् सा कद्रीचीकाम् श्रीदर्थम् परागात्मस्वित्सूते न हि यूथे अन्तः अवःपरेण पितरम् यो अस्यानुवेद परजेनावरेण कवीयमानः क इह प्रवोचद्देवम् मनः कुतो अधिप्रजातम् ये अर्वाञ्जस्ताम् उपराजाहुर्ये पराञ्जस्ताम् अर्वा च आहुः इन्द्रश्चया चक्रतः सोमतानि धुरानयुक्ता रजासो वहन्ति द्वासु पर्णा सयुजा सखा जासमानम् वृक्षम् परीषस्वजाते तयोरन्यः पित्वलम् स्वाध्वत्तरस्वन्धन्यो अभिजागसीति यत्रा सुपन्ना अमृतस्य भागमनिवेषम् विदधा विस्फरन्ति इन्द्रो विश्वस्य भुवनस्य गोपाः समाधीरः पाकमत्रावीवेश यस्मिन् वृक्षे मध्वतः सुपर्णानि विशन्ते सुपते चाधिविश्वेः तस्येदाहु पिप्पलम् स्वाद्वग्रे तन्नोन्न सद्यः पितरम् न वेद यद्गा यत्रे अधिगा यत्र माहीतम् त्रैष्टुभाद्वात्रैष्टुभम् निरलक्षत यद्वा जगज्जगत्याहीतम् पदञ्जयित्तद्विदुस्ते आमृतत्वमानसुः गायत्रेण प्रतिमिमीते अर्कमर्केण दामत्रैष्टुभेण वाकम् वाकेन वाकम् द्विपदा चतुष्पदाक्षरेण मिमते सप्तवाणीः जगता सिन्धुम् दिव्यस्तभाजद्रथम् तरे सूर्यम् पर्यपश्यत् गायत्रस्य सविधस्तिस्राभुस्ततो वह्ना प्रवीरिते महित्वा उपक्वये सुदुधाम् धेनुमेताम् सुभस्तो गोधुकुतो हतेनाम् श्रेष्ठम् समम् स वितासाभिषन्नोभिद्धो घर्मस्तदृषु प्रवोचम् इन्द्रण्वतीव सुपत्नीवसूनाम् वत्समिच्छन्तीमनसाभ्यागात् दुरावश्विभ्याम् वयो अग्नेयम् सावद्धताम् महते सौभागाय गौरमी वेदनो वत्सम् विषन्तम् मूर्ध्वानम् हिङ्गकृणोन्मातबाहु शृत्वानम् घर्ममभिमावसानामिमाति मायुम् प्रजाते पयोभिः अयम् सतिम् तेजेन गौरभिवृतामिमादिमायुम् धसनावधिश्रिता सा नित्यभिर्निहितकारमत्यम् विद्युद्भवम् प्रतिवव्रिमौहद अनक्षये दुरगातु जीवमेतद्ध्रुवम् मध्यापस्यानाम् जीवो मृतस्य चरति स्वधाभिरमत्यो मत्येनासयोनिः अपश्यम् गोपामनी पद्यमानमा च परा च पतिभिस्तरम् तम् सध्रीतीश्वरविषूतीर्वसा न आवारीमत्रिभुवानेष्वन्तः यजीञ्चकारनसो अस्य वेद यजीम् ददर्श हि मृगिन्नु तस्मात् समादर्यो नापरीवीतो अन्तर्बाहु प्रजानिर्वृतिमावीवेश यौर्मे पिता च नितानाभिरत्र बन्धुम् मे माता पृथिवी महीयम् उत्तालयोस्तम्भोर्यो निरन्तरत्रा पिता दुहितुर्गर्भमाधात् पृच्छामि त्वापरमन्तम् पृथिव्याः पृच्छामि यत्र भुवानस्य नाभिः पृच्छामि त्वावृष्णो अश्वस्य नेतः पृच्छामि वाचः परमम् व्योम इयम् वेदिः परो अन्तः पृथिव्या अयम् यज्ञो भुवानस्य नाभिः अयम् सोमो वृष्णो अश्वस्य नेतो ब्रह्मायम् वाचः परमम् व्योम सप्तार्धगर्भाभुवानस्य वेदो विष्णोस्तिष्ठन्ति प्रतिशाविधर्मणि ते धीतिभिर्मणा सा देवी पश्चितः परिभुवः परिभवन्ति विश्वताः न विजानामि यदि भेदमस्मि निन्यः सन्नद्धो मनसा चरामि यदा मागम् प्रथमजारितस्यादिद्वाचो अश्नु मे भागमस्याः अपाङ्गेति स्वधजागृभीतो मत्यो मत्येनासयोनिः स्वन्दाभिषोचीनाः विजन्तान्या अन्यम् चैक्यम् न निचैक्यरन्यम् ऋचो अक्षरे परमे व्यो मन्यस्मिन् देवाधिविश्वे निषेदुः यस्तन्न वेद किमृता करिष्यति तद्विदुस्त इमे समासते सूर्यवसाद् भगवतीः भूयासो वयम् भगवन्तः स्याम अद्धिर्णमग्ने विश्वदानीम् पिलशुद्धमोपयमाचरन्ति गौरीर्मे मायसलिलालितक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूभुषी सहस्राक्षरा परमे व्योमन् तस्याः समुद्रामधिविक्षरन्ति तेन जीवन्ति प्रतिसश्चतस्रः तदाहक्षरत्यक्षरम् तद्विश्वमुपजीवति शकमयम् धूममारादपश्यम् विषूवता भरजेनावरेण उक्षरम् कृष्णीमजन्त वीरास्तानि धर्माणि प्रथमान्यासन् प्रयः केचिन ऋतुधा विदक्षते संवत्सरेव पतयेकयेषाम् स्वमेको अभिदष्टे सचेभ्यर्ध्रादिवेकस्य ददृशेन रूपम् चत्वारि वात्परिमिता पदानिदानि विदुर्ब्राह्मणायेव भीषिणाः गुहात्रीणि निहितारेङ्गयन्ति तुलीयम् वाचो मनुष्याः वदन्ति इन्द्रम् मित्रम् वरुणमग्निमाधुरथो दिव्यस्व सुपर्णो गरुत्वाहान् एकम् सद्विप्रा बहुधा वदन्त्यग्निम् जमादरिष्वानमाहुः
कृष्णम् विजानम् करजस्सु पर्णापोवसादादिममुत्पादन्ति तावृत्रान् सदनादृतस्यादिद्भृतेन पृथिवीम् युज्यते द्वादश प्रथयश्चक्रमेकमन्त्रीणि लभ्यानि कबुतश्चीकेत तस्मिन् साकम् त्रिशतानसङ्गमोऽर्पिता षष्ट्यम् न च लाचलासाः तस्ते स्तनस्य सयोजो वायो भूर्येन विश्वापुष्य शिवार्याणि यो रत्नधाव सुविद्यस्व तत्र सरस्वतितमिह धातवेकः यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः समानमेतदुदकमुच्चैत्यवचाभिः भूमिम् पर्जन्या जिन्वन् दिलिवम् जिन्वन्त्यग्नयाः दिव्यम् सुपर्णम् वागसम् मृगन्तमपाम् गर्भम् दर्शतमोषधीना अभीमतो वृष्टिभिस्तर्पयन्तम् सरस्वन्तमपसेजो भवीमि